शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्ते। अभिप्रेतार्थ सिद्धर्थं पूजितो यः सुरेरपि सर्वविघ्नच्छिदे तस्मै
सिद्ध।